श्री परमात्मने नमः। अथ पञ्चदशोऽध्यायः पुरुषोत्तमप्रातियोगः। श्रीभगवानुवाच, ओत्वमूलमतश्चाकम् अश्वत्थं प्राहुरव्ययं छन्दांस्यश्च पर्णानि यस्तं वेरसवेरवित अधश्चोत्वं प्रसृतास्तस्य शाखा गुणप्रवृत्ता विषयप्रबालाः अधश्च मूलान् येनु सन्ततानि कर्मानुबन्धीनि मनुष्यलोके न रूपमस्येह ततोपलभ्यते नान्तो न चातिर् न च सम्प्रतिष्ठा। अश्वत्थमेदं सुविरूढं मूलम् असङ्गशस्त्रेण हृदेन चित्वा ततः पदं तत्परिमार्गितव्यं यस्मिन् गता नरिवृत्तं तिभूयः तमेव चात्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणे निर्माणमुहा चित्तसङ्गदोषाः अध्यात्मनित्या विनिवृत्तकामाः वन्वेर्विमुक्ता सुखदुःखसन्देहः गच्छन् च मूरा परमव्ययं तत् न तत्पाशयते सूर्यः रसशाको न पावकः यद्गत्वा न निवर्तन्ते तत्ताम परमं मम ममैवांशो जीवलोके जीवभूतः सनातनः मनसस्थानि इन्द्रियाणि प्रकृतिस्थानि कर्षति शरीरं यदवाप्नोति यच्छाप्युक्रामदीश्वरः तिहि त्वैतानि संव्याति वायुर्गन्धानि वासयात् श्रोत्रं चक्षुस्पर्शनं च रसनं प्राणमेव च अधिष्ठाय मनश्चायं विषयानुपसेवते उत्तरामन्तं स्थितं वापि पुञ्जानं वा गुणान्वितं विमूढानानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः यतं तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितं यतं तो प्रप्रतात्मानः नैनं पश्यन्त्यचेतसः यदा नित्यकदं तेजः जगत्पासे ते किलं यच्छन्त्रमसि यच्छाग्नो तत्तेजो विद्धिमामकम् कामा विश्वच्छ भूतानि तादयाम्यहमूजसा पुष्णामि चौषति सर्वाः सोमो भूत्वा रसात्मकः अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधं सर्वस्य चाहं इति सन्निविष्टः मत्तस्मतिर्ज्ञान पोहनं च वेदस्य सर्वे अहमेव वेद्यः वेदान्तकृत्वेन विदेव चाहं त्वाभिमौ पुरुषो लोके शरीरश्चाक्षर एव च सदसर्वाणि भूतानि कूटस्थोऽक्षर उच्यते उत्तमः पुरुषस्मन्यः परमात्मैकृताहितः यो लोकत्रयमाविश्य विवर्तव्यय ईश्वरः यस्माक्षरमतीतोऽहम् अक्षरादपि चोत्तमः अतोऽस्मि लोके वेदे च पतितः पुरुषोत्तमः यो मामेव वसम्मूरः जानाति पुरुषोत्तमं स सर्ववित् पचति वां सर्वभावेन भारत इति कुह्नत् शास्त्रम् इदमुत्तं मयानक एतत् भूत्वा भूतिमाश्य सकृत्यस्य भारत ॐ तत्सद्धि श्रीमद्भगवद्गीतासु परिषत्सु ब्रह्मविद्याया योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमप्राप्ति को नामा पंचदशोऽध्यायः।